एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। प्रधानमन्त्री सुशीला कार्की आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः सदस्यानाम् निर्वाचनस्य कृते सुरक्षा संवेदनशीलतायाः आधारेण सर्वैः सुरक्षा निकायैः सह समन्वयम् विधाय कार्यम् विधातुम् नेपाली सेनाम् निर्दिशति। भद्रकालीवर्तिनः नेपाली सेनायाः मुख्यालयस्य पूर्वेद्युः निरीक्षणम् विदधाना प्रधानमन्त्री कार्की सर्वकाराय प्राप्तस्य दायित्वस्य पूरणस्य अन्तर्गतम् शान्ति सुरक्षायाः प्रत्याभूत्या सह घोषितदिनांके स्वतन्त्रम् निष्पक्षम् च निर्वाचनम् भयरहिते वातावरणे सम्पाद्य राष्ट्रियस्य अभिभारस्य पूरणस्य अभियाने सेनायाः भूमिका महत्वपूर्णा भवतीति उदैरयत्। प्रधानमन्त्री कार्की जेएनजी युवसन्ततेः आन्दोलनस्य क्रमे लुण्ठितानाम् लुप्तानाम् च शस्त्रास्त्राणाम् अन्वेषणस्य नियन्त्रणे ग्रहणाय प्रहरिणा सह सुरक्षानिकायैः आवश्यकम् सहकार्यम् विधातुम् देशे शान्ति सुरक्षाम् सुनिश्चेतुम् पलायितान् अपराधिनो जनान् निग्रहीतुम् च प्रहरिणे सहयोगाय नेपाली सेनाम् निरदिशत्। प्रधानमन्त्रिणा सुशीला कार्किणा ह्य जेएनजी युवसन्ततेः आन्दोलनस्य अग्रणी प्रतिनिधिभिः सह विमर्शनम् विहितम् वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सर्वकारस्य आन्दोलनकारिणाम् च मध्ये जायमानायाः संविधायाः प्रारूपाय अन्तिमरूप प्रदानस्य विषये ह्य विमर्शनम् सम्भूतमस्तीति प्रधानमन्त्रिणः संचार संयोजकः रामबहादुर रावल असूचयत। तदवसरे जेएनजी युव प्रतिनिधिभिः संविधायाम् हस्ताक्षरणस्य कार्यम् शीघ्रम् सम्पादयितुम् प्रधानमन्त्री कार्की अनुरुद्धा आसीत्। तदवसरे प्रधानमन्त्रिणा कार्किणा अभिलेख प्रारूपम् इदम् राजनीतिकाभिलेखो वर्तते इत्यतः अस्य सम्पूर्णम् दायित्वम् मन्त्रिपरिषदा ग्रहीष्यते इति भाषमाणा कर्मचारी प्रशासकैः चिन्ताम् न कृत्वा आगामिनः सोमवासरस्य अभ्यन्तरे संविदा प्रारूपाय अन्तिमम् रूपम् प्रदातुम् निर्दिष्टम् आसीत्। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते मतदान केन्द्राणाम् निर्वाचनस्य सुरक्षायाः कृते आवादिक प्रहरिणाम् च संख्याम् निश्चित्य तदर्थम् आवश्यक प्रक्रियाम् प्रारब्धुम् सम्बद्ध निकायाः पूर्वकार्ये सक्रियाः वर्तन्ते। एतत्पूर्वस्य मतदातृसंख्यातः नूतन मतदातृणाम् संख्यायाः वर्धनात् एकीकृत निर्वाचन सुरक्षा योजनायाम् एकलक्षम् द्वात्रिंशत् सहस्राणि च आवधिक प्रहरिणः वर्धनीयाः इति आवश्यकतायाः दर्शनस्य पश्चात् सम्बद्ध निकायाः पूर्वकार्ये संलग्नाः वर्तन्ते। गृहमन्त्रालयस्य सहसचिवः प्रवक्ता च आनन्द काफ्ले निर्वाचनस्य सुरक्षायोजनायाः क्रियान्वयनस्य क्रमे नेपाल प्रहरिणा आवधिक प्रहरिणः प्रशिक्षणस्य निर्माणस्य च प्रक्रिया प्रारभ्यते इति असूचयत्। नेपाली कम्युनिष्ट दलस्य संयोजकः पुष्पकमल दाहाल प्रचण्डः भाषते देशे सृष्टम् संकटम् अतिक्रान्तुम् नेपाली कम्युनिष्ट दलस्य एकता प्रक्रिया अग्रे वर्धिता अस्ति। ह्य धनगढ़ी स्थाने आयोजिताम् दलस्य एकता सन्देश सभाम् सम्बोधयन् संयोजकः प्रचण्ड पञ्चदश वाम घटक दलानि एकत्र आगत्य कम्युनिष्ट दलम् निर्मितम् अस्ति, वृहद वामपन्थी एकतायाः महाभियाने नेकपा दलम् केन्द्रितम् च वर्तते इति च प्रावोचत। एकता सभाम् सम्बोधयन् दलस्य सहसंयोजकः माधव कुमार नेपालः देश विकासस्य संकल्पम् देशभक्तिम् राष्ट्रिय हितम् च केन्द्रे संस्थाप्य दलम् अग्रे वर्धमानम् अस्तीति उदैरयत्। सभायाम् नेता डाक्टर भीम रावलः नूतन जनादेशस्य कृते नेपाली कम्युनिष्ट दलम् तत्परम् वर्तते, सर्वकारेण निर्वाचनस्य वातावरणम् निर्मातव्यमिति प्रावोचत्। धनगढ़ीतः प्रारब्धा नेपाली कम्युनिष्ट दलस्य एकता सन्देश सभा सप्तसु एव प्रदेशेषु आयोक्ष्यते इति दलेन ज्ञापितमस्ति। कृषि पशुपक्षी विकास मन्त्रालयेन कृषि क्षेत्रस्य विकासाय आराष्ट्रम कृषि सर्वेक्षणम् प्रारब्धम् वर्तते। मन्त्रालयेन सर्वैः स्थानीय स्तरैः प्रदेशानाम् कृषि मन्त्रालयैः सम्बद्धैः अन्यैः निकायैश्च सह समन्वयम् विधाय तथ्यांक संकलनस्य कार्यम् प्रारब्धम् वर्तते। तथ्यांक संकलनस्य क्रमे 12 संकलनस्य सम्भावनया एकद्वारा प्रणालितः स्थानीय स्तरेण सह समन्वयम् सहकार्यम् च विहिते स्त इति मन्त्रालयस्य तथ्यांक शाखा प्रमुख रामकृष्ण रेग्मी अज्ञापयत्। गृहमन्त्री ओम प्रकाश अरियालः गदति संघस्य प्रदेश सर्वकाराणाम् च मध्ये सहकार्यस्य कार्यम् अतिरिक्तम् सबलम् विधीयते। गृहमन्त्रालये ह्य मधेश प्रदेशस्य गृह विधि संचार मन्त्रिणा विमला अंसारी इत्यनया सह विहिते मेलने गृहमन्त्री अरियालः मधेश प्रदेशस्य सुरक्षां सुदृढां विधातुं केन्द्र सर्वकारः पूर्णतः प्रतिबद्धोऽस्तीति अवोचत। मेलने गृहमन्त्री अरियालः प्रदेशस्य सुरक्षायाः व्यवस्थापने सहजाताम् आनेतुं प्रहरी समायोजनस्य अधिनियमस्य क्रियान्वयनस्य प्रक्रियायै शीघ्रता प्रदीयते इति विश्वासम् अदापयत्। हुतात्म धर्मभक्त राष्ट्रिय प्रत्यारोपण केन्द्रे विशेषज्ञानाम् चिकित्सकानाम् अभावेन सेवा प्रभाविता वर्तते। केन्द्रे विशेषज्ञानाम् चिकित्सकानाम् अभावेन केन्द्रेण प्रदीयमानम् वृक्क प्रत्यारोपणस्य कार्यम् अवरूद्धम् वर्तते। केन्द्रस्य कार्यकारी निर्देशकः डाक्टर कल्पना श्रेष्ठ एकमात्रस्य वृक्क प्रत्यारोपण विशेषज्ञस्य डाक्टर पुकार चन्द्र श्रेष्ठस्य अवकाशस्य पश्चात् गत श्रावण मासात् वृक्क प्रत्यारोपणस्य कार्यम् स्थगितम् अस्तीति असूचयत्। द्वितीय संस्करणस्य नेपाली प्रीमियर लीगे क्रिकेट क्रीडा श्रृंखलायाः अन्तर्गतम् पूर्वेद्युः काठमाण्डु गोर्खाजीति क्रीडा समूहेन तृतीयवारम् विजयः अधिगतोऽस्ति। त्रिभुवन विश्वविद्यालयस्य क्रिकेट क्रीडा रंगशालायाम् पूर्वेद्युः क्रीडितायाम् प्रथम क्रीडायाम् काठमाण्डु गोर्खाजीति समूहेन चितवन राइनोजीति क्रीडा समूह 53 धावनांकानाम् अन्तरेण पराजितो वर्तते। काठमाण्डु गोर्खाजीति समूहेन प्रदत्तम् 43.5 धावनांकानाम् लक्ष्यम् अनुसरन् चितवन राइनोज क्रीडा समूह 10.27 ओवर अंकेषु 91 एव धावनांकान् अर्जितुम् समर्थः आसीत्। एवमेव ह्य क्रीडितायाम् द्वितीय क्रीडायाम् विराटनगर किंग्स इति क्रिकेट क्रीडा समूहेन कर्णाली याक्स इति क्रीडा समूह 3 क्रीडकानाम् अन्तरेण पराजितो वर्तते। बसीर अहमद इत्यस्य अर्धशतक धावनांकानाम् बलेन विराटनगर समूहेन कर्णाली याक्स समूहोपरि आश्चर्यमय विजय अधिगतोऽस्ति। क्रीडाया अन्तिम समय कन्दुकद्वयेन 4 धावनांका अर्जनीया आसन्। तस्याम् अवस्थायाम् बसीर इत्यनेन धावनांक षड्कम् समर्ज्य लक्ष्यम् प्रपूरितम् आसीत्। तत्पूर्वम् प्रथमम् क्रीडित्वा कर्णाली समूहेन 61.1 धावनांकानाम् विजयलक्ष्यम् प्रदत्तम् आसीत्। मुस्ताङ जनपदे हिमचित्र व्याघ्राणाम् संख्याया अवस्थायाश्च सर्वेक्षणम् प्रारब्धम् वर्तते। अन्नपूर्ण संरक्षण क्षेत्रायोजनाया स्थानीय कार्यालयेन जोमसोम बारामुङ मुक्ति क्षेत्र ग्रामपालिकाया उच्च हिमालयीय क्षेत्रे 15 दूरदर्शक यन्त्रोपकरणानि संस्थाप्य वासस्थानानाम् आहारस्य संख्यायाश्च अन्वेषण कार्यम् प्रारब्धम् वर्तते इति समाचारः।